एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। अद्य नेपाले दशमः संविधान दिवसः राष्ट्रिय दिवसश्च विविधै कार्यक्रमैः समायोज्यमानो वर्तते। दशवर्षेभ्यः पूर्वं द्विसप्तत्युत्तर द्विसहस्रतम विक्रमाब्दस्य आश्विन मासस्य तृतीये दिवसे संविधानसभया नेपालस्य वर्तमान संविधानं क्रियान्वितमासीत्। अतः आश्विन मासस्य तृतीयो दिवसः राष्ट्रिय दिवसत्वेन संविधान दिवसत्वेन च समाद्रियते। अस्य संविधानस्य निर्माणाय बहुनाम् हुतात्मनाम् योगदानमस्ति। देशस्य वर्तमानायां परिवर्तितायां परिस्थितौ संविधानस्य क्रियान्वयनैव सर्वासां समस्यानां समाधानं भवतीति मत्वा संविधान निर्माणस्य दशवर्षाणां पूरणस्य अवसरे अद्य विशेष समारोह समायोज्यमानोऽस्ति। अद्य टुडीखेलवर्तिनी सैनिक मञ्चे राष्ट्रपतेः रामचन्द्र पौडेलस्य प्रमुखातिथ्ये आयोक्ष्यमाणे समारोहे प्रधानमन्त्री सुशीला कार्की च सम्बोधनं विधास्यति। टुडीखेलवर्तिनी सैनिक मञ्चे आयोक्ष्यमाणस्य समारोहस्य रेडियो नेपालेन प्रत्यक्ष प्रसारणं विधास्यते। राष्ट्रपति रामचन्द्र पौडेलः निगदति वर्तमान संविधानेन केन्द्रीकृतैकात्मक व्यवस्थया सृष्टानां सर्वविध विभेदानां उत्पीडानाञ्च अन्तं विधाय जातीय भाषिक धार्मिक सांस्कृतिक भौगोलिक विविधायुक्तः नेपाली समाजः बृहद् राष्ट्रिय एकताया सूत्रे आबद्धः कृतोऽस्ति। संविधान दिवसस्य अवसरे शुभकामना सन्देशं प्रकाशयन् राष्ट्रपतिः पौडेलः संघीय लोकतान्त्रिक गणतन्त्रात्मक शासन व्यवस्थायाः माध्यमेन स्थिर शान्तेः सुशासनस्य विकास समृद्धेश्च आकांक्षां पूरयितुम् अस्माभ्यं सर्वेभ्य प्रेरणा मिलतीति शुभभावं व्यक्तवान् अस्ति। राष्ट्रपतिः पौडेलः नेपालस्य संविधानेन सामाजिक न्याय आधृतायाः समतामूलक समाजस्य परिकल्पनायाः समाजोन्मुखार्थतन्त्रस्य च निर्माणस्य लक्ष्यं निर्धारितमस्ति इति उक्तवान् वर्तते। एतदवसरे उपराष्ट्रपतिना रामसाहेब प्रसाद यादवेन सांविधानिकाङ्गेषु निकायेषु च समावेशी सिद्धान्तस्य पूर्णतः पालनाय सर्वपक्षानां सक्रियता प्रतिबद्धता च अपरिहार्यो वर्तते इति उक्तवान् अस्ति। एवमेव नेकपा माओवादी केन्द्रस्य अध्यक्षेण पूर्व प्रधानमन्त्रिणा च पुष्पकमल दाहाल प्रचण्डेन राष्ट्रियसभाया अध्यक्षेण नारायण प्रसाद दाहालेन नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देउवा भिदेन मन्त्री परिषद पूर्वाध्यक्षेण खिलराज रेग्मिणा च संघीय लोकतान्त्रिक गणतन्त्र नेपालस्य एतद् विक्रमवर्षीयस्य संविधान दिवसस्य अवसरे शुभकामना सन्देशाः सार्वजनिकृताः वर्तन्ते। प्रधानमन्त्रिणा सुशीला कार्किणा भारतस्य प्रधानमन्त्रिणा नरेन्द्र मोदिना सह दूरभाषवार्ता विहिता अस्ति। यः सम्पन्नायां द्वयोः देशयोः प्रधानमन्त्रिणोः दूरभाषवार्तायां नेपालस्य साम्प्रतिक राजनीतिक घटनानां विषयेषु विमृष्टमासीत्। वार्तायाः क्रमे प्रधानमन्त्री कार्की नेपाल भारतयोः प्राचीनस्य मैत्रीपूर्णस्य च सम्बन्धस्य स्मरणं विहितवती। तदवसरे प्रधानमन्त्रिणा कार्किणा भारतस्य प्रधानमन्त्रिणे मोदिने तदीय जन्मदिवसस्योपलक्ष्ये शुभकामना प्रदत्ता अस्ति। प्रत्युत्तरे भारतीय प्रधानमन्त्री मोदी प्रतिवेशी मित्रराष्ट्रस्य रूपेण भारतदेशः आगामिषु दिवसेष्वपि नेपालाय सहयोगं करिष्यति इति उक्तवान्। तदवसरे द्वयोः देशयोः सर्वकारप्रमुखयोर्मध्ये नेपाल भारतयोः सम्बन्धस्य द्विपक्षीयस्य हितस्य अभिरुचेश्च विषयेष् विमृष्टमासीदिति परराष्ट्र मन्त्रालयेन ज्ञापितं वर्तते। ह्य एव नेपालस्य कृते अमेरिकादेशस्य राजदूतेन डीआर थम्सन इत्यनेन प्रधानमन्त्रिणा सुशीला कार्किणा सह शिष्टाचार मेलवार्ता विहिता अस्ति। सीमप्रासादवर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालये सम्भूते मेलने अनयोर्मध्ये पारस्परिक हितस्य विविधेष् विषयेष् विमृष्टमासीदिति प्रधानमन्त्रिण कार्यालयेन ज्ञापितं वर्तते। मेलने अमेरिकादेशेन नेपालाय दत्तस्य सहयोगस्य कृते धन्यवादं व्याहरन्ति प्रधानमन्त्री कार्की आगामिषु दिनेष्वपि एवमेव सहयोगो भविष्यति इति विश्वासं व्यक्तवती। तदवसरे राजदूतः थम्सन अमेरिकादेशस्य सर्वकारस्य पक्षतः वर्धापनम् अर्पितवान्। ह्य एव नेपालस्य कृते चीनदेशस्य राजदूतेन चेन सङ इत्यनेन च प्रधानमन्त्रिणा कार्किना सह शिष्टाचार मेलवार्ता विहिता अस्ति। तदवसरे चीनदेशस्य राजदूतः चेन सङ प्रधानमन्त्रिणे कार्की इत्यस्य वर्धापनानि ज्ञापितवान्। तदवसरे द्वयोर्मध्ये नेपाल चीन देशयोः द्विपक्षीयस्य सम्बन्धस्य विविधेष् विषयेष् विमृष्टम् आसीत्। अर्थमन्त्री रामेश्वर खनाल आगामिन फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्य माणस्य प्रतिनिधि सभाया निर्वाचनार्थम् आवश्यकस्य वित्तस्य कृते दातृ निकायानां निर्भरताया अवस्था नास्तीति उक्तवान् वर्तते। सृजन इति नेपाल आर्थिक पत्रकार समाजस्य नवनिर्वाचिताया कार्यसमितेः पदाधिकारिभिस्सह यः सम्भूते मेलने अर्थमन्त्री खनाल वर्तमान आर्थिक वर्षस्य आय व्ययके आयोजना कोषे न समाविष्टः त्रयोदश शताधिकः आयोजनाः प्राप्ताः वर्तन्ते। तासाम् आयोजनानां कृते एकं खर्वं दशाब्जानि च रूप्यकाणि विनियोजितानि सन्ति इति अगदत्। अर्थमन्त्रिणः खनालस्य अनुसारेण सर्वकारेण निर्वाचनस्य कृते विनियोगं विधाय ततो अवशिष्टं वित्तं पुनर्निर्माणे प्रयोक्ष्यते। अर्थमन्त्री खनाल मन्त्री परिषदा सम्प्रत्यैव निर्वाचन आयोगस्य काठिन्यम् अपसारयितुं सर्वाणि कार्याणि विधीयमानानि सन्ति इति असूचयत्। कार्यक्रमे नेपाल राष्ट्र कोषागारस्य अधिशासक डाक्टर विश्वनाथ पौडेल अर्थतन्त्रस्य विकासाय राजनीतिकं स्थायित्वं निवेशमैत्री वातावरणं नैजक्षेत्रस्य मनोबले अभिवृद्धिश्च आवश्यकानि भवन्ति इति अभाषत। गृहमन्त्री ओम प्रकाश अर्याल निर्धारित समय एव निर्वाचनं भविष्यति इति समस्पष्टयति। निर्वाचन आयोगेन सह ह्यो विहिते विमर्शने गृहमन्त्री अर्याल अस्य विक्रम वर्षस्य फाल्गुन मासस्य एकविंशे दिवसे निर्धारित समय एव निष्पक्ष रूपेण भयरहित वातावरणे निर्वाचनं सम्पादयितुं सुरक्षाया उचित प्रबन्धनं करिष्यते इति समस्पष्टयत्। गृहमन्त्री अर्याल मितव्ययी रूपेण निर्वाचनस्य सम्पादनाय आवश्यक स्रोत साधनानां जनशक्तेश्च न्यूनता निवार्यते इति प्रतिबद्धतां व्यक्तवान्। विमर्शने कार्यवाहक प्रमुख निर्वाचन आयुक्त रामप्रसाद भण्डारी निर्वाचनस्य दिनस्य घोषणाया पश्चात् आयोग निर्वाचनाय पूर्व कार्येषु प्रवर्तितोऽस्ति इति असूचयत्। कार्यवाहक प्रमुख आयुक्त भण्डारी आवश्यक विधेय संशोधनं कृत्वा समेषाम् अधिकाराणां सुनिश्चयनस्य सन्दर्भे आयोग बाधको न भविष्यति इति समस्पष्टयत्। नेपाल उद्योग वाणिज्य महासंघेन उद्योग व्यवसाय शान्ति सुरक्षाया प्रत्याहुतिं दापयितुं सर्वकार अभियाचितोऽस्ति। महासंघस्य अध्यक्षस्य चन्द्रप्रसाद ढकालस्य नेतृत्वस्य समूहेन ह्य गृहमन्त्रिणा ओम प्रकाश अर्यालेन सह मन्त्रालये विहिते मेलने मर्यादित रूपेण व्यवसायस्य कृते शान्ति सुरक्षाया प्रत्याहुतिं दापयितुं सर्वकार अभियाचितोऽस्ति। तदवसरे गृहमन्त्री अर्याल साधारण नागरिकाणां व्यवसायिनां च शान्ति सुरक्षायै सर्वकार संवेदनशीलोऽस्ति इति उक्तवान् आसीत्। मेलने अध्यक्षेण ढकालेन नैजक्षेत्रेण जनपदेषु सुरक्षाया अनुभूति सम्भूता नास्ति इति अवस्थायां सर्वकारेण सुरक्षायां विशेषेण ध्यानं प्रदेयम्। आन्दोलनस्य क्रमे नैजक्षेत्रस्य सम्पत्सु विहितानाम् आक्रमणस्य त्रोटन भञ्जनादि कार्याणाम् अग्निदाहस्य कार्येषु संलग्नान् जनान् दण्डयितुं गृहमन्त्री अनुरुद्धः आसीत्। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षं मदेशियायोगेन राष्ट्रिय महिला आयोगेन च गतार्थिक वर्षस्य वार्षिकं प्रतिवेदनं प्रस्तुतमस्ति। राष्ट्रपति कार्यालये ह्य आयोजिते पृथक् पृथक् समारोहे नेपालस्य संविधानस्य अनुसारेण मदेशियायोगस्य कार्यवाहकेन अध्यक्षेण जीवछ शाह इत्यनेन राष्ट्रिय महिला आयोगस्य अध्यक्षेण कमला पराजुली इत्यनया च स्वकीयं प्रतिवेदनं प्रस्तुतमस्तीति राष्ट्रपतेः कार्यालयस्य प्रवक्त्रा प्रदीप कुमार कोइराला विधेन ह्यः प्रकाशितायां विज्ञप्तौ उल्लिखितमस्ति।